ओम नमो भगवते वासुदेवाय। अथाष्टाविंशोऽध्यायः। श्रीशुक उवाच। एकादश्याम् निराहारः समभ्यर्च्य जनार्दनम्। स्नातुम् नन्दस्तु कालिन्द्या द्वादश्याम् जलमाविशत्। तम् गृहीत्वा नयत् भृत्यो वरुणस्यासुरोऽन्तिकम्। अविज्ञायासुरीम् वेलाम् प्रविष्टमुदकम् निशि चुक्रुषुस्तमपश्यन्तः कृष्णरामेति गोपकाः। भगवांस्तदुपश्रुत्य पितरम् वरुणाहरितम्। तदन्तिकम् गतो राजन् स्वानामभयदो विभुः। प्राप्तम् वीक्ष्य ऋषिकेशम् लोकपालः सपर्यया। महत्या पूजयित्वाह तद्दर्शनमहोत्सवः। वरुण उवाच। अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो। त्वत्पादभाजो भगवन्नवापुः पारमध्वनः। नमस्तुभ्यम् भगवते ब्रह्मणे परमात्मने। न यत्र श्रूयते मायालोकसृष्टिविकल्पना। अजानता मामकेन मूढेन कार्यवेदिना। आनीतोऽयम् तव पिता तद्भवान् क्षन्तुमर्हति। ममाप्यनुग्रहम् कृष्ण कर्तुमर्हस्य शेषदृक्। गोविन्दनीयतामेष पिता ते पितृवत्सल। श्रीशुक उवाच। एवम् प्रसादितः कृष्णो भगवानीश्वरेश्वरः। आदायागात् स्वपितरम् बन्धूनाम् चावहन्मुदम्। नन्दस्त्वतीन्द्रियम् दृष्ट्वा लोकपालमहोदयम्। कृष्णे च सन्नतिम् तेषाम् ज्ञातिभ्यो विस्मितोऽब्रवीत्। ते त्वौत्सुक्यधियो राजन्मत्वा गोपास्तमीश्वरम्। अपि नः स्वगतिम् सूक्ष्मामुपाधास्य दधीश्वरः। इति स्वानाम् स भगवान् विज्ञायाखिलदृक् स्वयम्। सङ्कल्पसिद्धये तेषाम् कृपयैतदचिन्तयत्। जनो वै लोक एतस्मिन्न विद्या कामकर्मभिः। उच्चावचासु गतिषु न वेदस्वाम् गतिम् भ्रमन्। इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः। दर्शयामास लोकम् स्वम् गोपानाम् तमसः परम्। सत्यम् ज्ञानमनन्तम् यद्ब्रह्मज्योतिः सनातनम्। यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः। ते तु ब्रह्महृदम् नीता मग्नाः कृष्णेन चोद्धृताः। ददृशुर्ब्रह्मणो लोकम् यत्र क्रूरोऽध्यगात् पुरा। नन्दादयस्तु तम् दृष्ट्वा परमानन्दनिर्वृताः। कृष्णम् च तत्र छन्दोभिः स्तूयमानम् सुविस्मिताः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धेष्टाविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।